ಏನಾಕ್ಷರ ಸಾಮ್ನಾಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ತಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನ ಯೇರ್ಮಃ ಯೇನ ಧೌತಾಗಿರ ಪುಂಸಾ ವಿವಲೈ ಶಬ್ದವಾರಿಭಿಃ ತಮಶ್ಚಾಜ್ಞಾನಜಂ ಭಿನ್ನಂ ತಸ್ಮೈ ಪಾಣಿನ ಯೇರ್ಮಃ ನತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಗುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ ಪ್ರವೇಶಾಯ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ. ಗುರುರೇವ ಗತಿಃ ಗುರುಮೇವ ಭಜೇ ಗುರುನೈವ ಸಹಾಸ್ಮಿ ನಮೋ ಗುರವೇ. ನ ಗುರೋ ಪರಮಂ ಶಿಶುರಸ್ಮಿ ಗುರೋರ್ಮತಿರಸ್ತಿ ಗುರೋ ಮಮ ಪಾಹಿ ಗುರೋ. ಓಂ ನಮಃ ಪಾಣಿನಿಕಾತ್ಯಾಯನ ಪತಂಜಲಿಭ್ಯಃ ಶಬ್ದವಿದ್ಯಾ ಸಂಪ್ರದಾಯ ಪ್ರವರ್ತಕೇಭ್ಯಃ ನಮೋ ಮುನಿಭ್ಯಃ ನಮೋ ಗುರುಭ್ಯಃ. ಪೂರ್ವಸ್ಯಾಂ ಕಕ್ಷಾಯಾಂ ಅಸ್ಮಾಭಿಃ ಶ್ರೂಯತೆ ವಾ? ಸಮ್ಯಕ್ ಶ್ರೂಯತೆ ವಾ? ಸಮ್ಯಕ್ ಶ್ರೂಯತೆ ವಾ? ಹಾ ಹಾ. ಪೂರ್ವಸ್ಯಾಂ ಕಕ್ಷಾಯಾಂ ಅಸ್ಮಾಭಿಃ ನಶ್ಚವ್ಯ ಪ್ರಶಾನಿತಿ ಸೂತ್ರಂ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಂ. ತದನಂತರಂ ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ ಇತಿ ಅಸ್ತಿ. ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ ಇತಿ ಸೂತ್ರೇ ಪದದ್ವಯಂ ವಿದ್ಯತೆ. ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ ಇತಿ ಖರಿಪರೆ ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ ಸ್ಯಾತ್ ಇತಿ ಸೂತ್ರಾರ್ಥ ವರ್ಣಿತಃ. ಅತ್ರ ಖರಿಪರೆ ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ ತತ್ ಸಮ್ಯಕ್ ಜ್ಞಾಯತೆ. ಖರಿಪರೆ ಇತ್ಯುಕ್ತೆ ಯದಾ ಖರ್ವರ್ಣಃ ಪರಃ ಭವತಿ ವಿಸರ್ಗಸ್ಯ ಸಕಾರಃ. ಖರ್ ಇತ್ಯುಕ್ತೆ ಕೆಕೆ ವರ್ಣಾಃ ವಯಂ ಜಾನೀಮಃ. ಇದಾನಿಂ ಚಕ್ರಿಂತ್ರಾಯಸ್ವ ಇತಿ ಉದಾಹರಣಂ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಂ. ಚಕ್ರಿಂತ್ರಾಯಸ್ವ ಇತ್ಯತ್ರ ಚಕ್ರಿರ್ ತ್ರಾಯಸ್ವ ಇತಿ ನಶ್ಚವ್ಯ ಪ್ರಶಾನಿತಿ ಅನೇನ ಸೂತ್ರೇಣ ಋತ್ವಂ ಭವತಿ. ತದನಂತರಂ ಋತ್ವೇ ಕೃತೆ ಅತ್ರಾನುನಾಸಿಕಸ್ಯ ಪೂರ್ವಸ್ಯ ತ್ವಾ ಖರ ಅನುಸ್ ಅತ್ರಾನುನಾಸಿಕಸ್ಯ ಪೂರ್ವಸ್ಯ ತ್ವಾ ಅನುನಾಸಿಕಾತ್ ಪರೋ ಅನುಸ್ವಾರಃ ಇತಿ ಸೂತ್ರೇಣ ಅನುಸ್ವಾರ ಆಗಮಃ ಅನುನಾಸಿಕ ಆದೇಶಃ ಭವತಿ. ತದನಂತರಂ ಋತ್ವಸ್ಯ ಕರವಸಾನಯೋ ವಿಸರ್ಜನೀಯಃ ಇತ್ಯನೇನ ವಿಸರ್ಗಃ. ವಿಸರ್ಗಸ್ಯ ಸಹ ಚಕ್ರಿಂಸ್ತ್ರಾಯಸ್ವ ಇತಿ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಂ. ತದನಂತರಂ ಸುಜಾತಾ ಭಗಿನಿ ಪ್ರಶ್ನಂ ಪೃಷ್ಟವತಿ ತತ್ರ ಯದಿ ಸುಪ್ತ ಸಂದೇಹ ಪ್ರವೃತ್ತಿ ಅಸ್ತಿ ತಾದೃಶ ಉದಾಹರಣಂ ಕಿಮಪಿ ಅಸ್ತಿ ವಾ ಇತಿ ಪ್ರಶ್ನಂ ಪೃಷ್ಟವಸ್ತಿ. ತದಾ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಂ ಶಾರ್ಗಿನ್ ಚಿಂದಿ ಇತಿ ಉದಾಹರಣಂ. ಇದಾನಿಂ ಅತ್ರ ಅನೇಕೇ ಸಂದೇಹಾಃ ಪ್ರಾದುರಭು ಅಭವನ್. ತತ್ರ ಅಸ್ಮಾಕಂ ಪ್ರಥಮ ಸಂದೇಹಃ ಆಸೀತ್ ಕುತಃ ತತ್ರ ಅಸ್ಮಾಕಂ ಪ್ರಥಮ ಸಂದೇಹ ಆಸೀತ್ ಕುತಃ ಶಾರ್ಗಿನ್ ಚಿಂದಿ ಇತ್ಯಸ್ಯಾಂ ಅವಸ್ಥಾಯಾಮೇವ ಶಾರ್ಗಿನ್. ಬಹು ಡಿಸ್ಟರ್ಬೆನ್ಸ್ ಅಸ್ತಿ, ಅಹಂ ಮ್ಯೂಟ್ ಆಲ್ ಕರೋಮಿ. ನೋ ಚೇತ್ ಯದಿ ಭವತ್ಯಃ ಭವಂತಃ ಪ್ರಶ್ನಂ ಪ್ರಷ್ಟುಂ ಇಚ್ಛಂತಿ ಕಿಮಪಿ ವಕ್ತುಂ ಇಚ್ಛಂತಿ ಚೇತ್ ಕೃಪಯಾ ತತ್ರ ರೈಸ್ ಹ್ಯಾಂಡ್ ಇತಿ ಅಸ್ತಿ ಕಿಲ, ರೈಸ್ ಹ್ಯಾಂಡ್ ಕುರ್ವಂತು ತದಹಂ ಅನ್ಮ್ಯೂಟ್ ಕರೋಮಿ ತದಾ. ಇದಾನಿಂ ಶಾರ್ಗಿನ್ ಚಿಂದಿ ಇತ್ಯತ್ರ ಪ್ರಶ್ನದ್ವಯಮಾಸೀತ್ ಕಿಮರ್ किमर्थम शार्गिन छिंदी इत्यत्रैव साक्षात् चुत्त संदेह प्रवृत्ति तत्रापि नकारः अस्ति छकारः अस्ति तत्र सुत्वस्य प्रवृत्तिः इदानीं सुत्वस्य प्रवृत्तेः स्तोश्चुनाश्चुः सकारस्य स्थाने तकारः इत्युक्ते सकार तवर्गाणां स्थाने सकार तवर्गः एव स्थानिनः अतः नकारः तवर्गाक्षरः अस्ति कुतः तत्र साक्षात् चुत्तसन्देहे प्रवृत्तिः नास्ति इति प्रश्नः आसीत् तत् प्रथमप्रश्नः द्वितीयप्रश्नः अत्र नश्चव्यप्रशानिति 837 अस्ति अत्रानासिकस्य पूर्वसिद्ध्वा इति 832 अस्ति प्रथमं 832 आगन्तव्यं तदनन्तरं 837 आगन्तव्यम् इति प्रश्नः आसीत् इदानीम् एतेषां सर्वेषां प्रश्नानाम् उत्तरं तत्र असिद्ध कान्सेप्ट् मध्ये अस्ति इदानीं पूर्वत्र सिद्धम् इति शास्त्रम् अष्टमाध्यायस्य द्वितीयपादे प्रथमं सूत्रम् तत्र पूर्वं शास्त्रं प्रति परमसिद्धम् इत्युक्ते पूर्वं शास्त्रम् इदानीं शास्त्र इदानीं वयं पश्य तत्र यदि शास्त्रद्वयं नाम सूत्रद्वयं यदि विद्यते तदा सूत्रद्वयं यदि विद्यते तदा इदानीं सपादसप्ताध्यायी मध्ये सूत्रद्वयं विद्यते युगपत् कार्यप्रवृत्तिः एकस्मिन् लक्ष्ये प्रवृत्तिः अस्ति चेत् इदानीम् एकस्मिन् स्थले एकस्मिन् प्रयोगे एव सूत्रद्वयस्य प्रवृत्तिः अस्ति चेत् तदा उभौ सूत्रौ अपि किं कुरुतः परस्परं दृष्ट्वा यदि कोऽपि परिभाषा अस्ति वा परनित्य अन्तरङ्ग परसूत्रं किम् इत्यादि दृष्ट्वा तत्र प्रवृत्तिः नो चेत् उत्सर्ग अपवादं दृष्ट्वा प्रवृत्तिः इदानीम् उदाहरणम् अहं वदामि इदानीम् आद्गुणः इति गुणसन्धिविधायकं सूत्रमस्ति गुणसन्धिविधायकं सूत्रं सर्वत्र अच्परकत्वमस्ति चेत् किं भवति गुणः एव भवति इदानीं तदा वृद्धिरेचि इति एकं सूत्रमस्ति गण ईशः इति स्थिते गणेशः इति गुणसन्धिः भवति इदानीं तव प्लस् एकम् इत्यत्रापि गुणसन्देहे प्रसक्तिः अस्ति तथापि गुणसन्देहे प्रसक्तिः अस्ति तथापि वृद्धिरेचि इति विशेष विधानेन सिद्धं भवति सिद्धे सति यदि नूतनः नियमः आरभ्यते तदा तस्य बाधकः भवति सिद्धे सति आरभ्यमाणो विधिः नियमाय भवति उत बाधको भवति इति एकः नियमः अस्ति इदानीम् एकं कार्यं लौकिके एकं कार्यमस्ति तत् अस्माभिः एकेन कर्तुं शक्यते तथापि वयं पुनः वदामश्चेत् एषः वा एषः करोति इति तदा सिद्धे सति विशेषनियमाय भवति तस्मिन् दिने उक्तं प्रायः मया इदानीं संस्कृतसम्मेलनावसरे सुजाता भगिनी चेन्नई नगरस्य कार्यं पश्यति इति एकं उत्सर्ग नियमः अस्ति. संस्कृत संबंधी यत्किमपि कार्यं भविष्यति तत् सुजाता भगिनी एव पश्यति इति नियमः. तत्र अस्माभिः उच्यते यदि सम्मेलनस्य भोजनव्यवस्था अस्ति चेत् महादेवन् महोदयः पश्यति इति वयं वदामः. तदा संस्कृत सम्मेलने भोजनकार्यं तत् सुजाता भगिन्याः एव भवति. तथापि अस्माभिः महादेवन् महोदयः विशेषतः भोजनं पश्यति इति अस्माभिः उच्यते चेत् तर्हि महादेवन् महोदयेनैव कर्तव्यम् इति अस्माकम् आशयः. एवमेव आद्गुणः वृद्धिरेचि इत्यत्र वृद्धिरेचि इति सूत्रस्य प्रवृत्तिः एव सूत्रस्य आगमनमेव सूचयति. यत्र यत्र अच्स्वरकत्वमस्ति परन्तु ये स्वर्णः अस्ति अच् अस्ति चेत् गुणसन्देहः प्रवृत्तिः, परन्तु तद् ये स्वर्णः भवति चेत् वृद्धिसन्धिः करणीयम्. संस्कृतकार्यमस्ति चेत् सुजाता भगिनी एव, परन्तु यदि भोजन संस्कृतकार्ये भोजनकार्यम् अस्ति चेत् तर्हि महादेवन् महोदयः इति यथा अस्ति तथा तादृशनियमाः सपादसप्ताध्यायी मध्ये परनित्य अन्तरङ्ग उत्सर्ग इत्यादि नियमाः सपादसप्ताध्यायी मध्ये भवन्ति. इदानीं त्रिपाद्यां का व्यवस्था इत्युक्ते पूर्वत्र असिद्धम्, पूर्वं शास्त्रं प्रति परं शास्त्रम् असिद्धम्. इदानीम् अत्र अस्मिन् उदाहरणे पश्यामः. शार्ङ्गिन् छिन्दि इत्यत्र सूत्रद्वयस्य प्रवृत्तिः अस्ति. नश्चव्यप्रशान् इति सूत्रस्य प्रवृत्तिः, स्तोश्चुनाश्चुः इति सूत्रस्य प्रवृत्तिः अस्ति. इदानीं नश्चव्यप्रशान् किं चिन्तयति, स्तोश्चुनाश्चुः नास्ति, सूत्रमेव नास्ति इति चिन्तयति. एवं सुजाता भगिनी यदि न जानाति तत्र आदेश ज्येष्ठाः आदेशं दत्तवन्तः भोजनसमये महादेवन् महोदयः कार्यं करोतु इति. सुजाता भगिनी यदि महादेवन् महोदयस्य यः आदेशः ज्येष्ठैः दत्तः, सुजाता भगिनी यदि तत् न जानाति सा किं करोति, भोजनसमये तस्य उत्तरदायित्वम् इति मत्वा भोजनसमये उपस्थितौ भूत्वा सा कार्यं करोति, कार्यं कर्तुं प्रारभ्यते. सा न जानाति महादेवन् महोदयः आगत्य पश्यति इति. सा चिन्तयति महादेवन् महोदयः यद्यपि आगच्छति, यदि सा महादेवन् महोदयं न जानाति तर्हि सा महादेवन् महोदयः कः इत्येव न सा न जानाति चेत् सः पाचकः, किमपि पाचकमध्ये कोऽपि एकः, न तु संस्कृतभारती कार्यकर्ता इति चिन्तयित्वा सा किं करोति, भोजनसमये अहं मया तत्र भवितव्यम् इति चिन्तयित्वा सा कार्यं कार्ये प्रवर्तितो प्रवर्तिता भूत्वा सा कार्यं करोति. एवमेव नश्चव्यप्रशान् किं चिन्तयति, स्तोश्चुनाश्चुः नास्ति, अतः अहमेव कार्यं करोमि इति प्रथमम् आगत्य पूर्वमेव आगत्य कार्यं करोति. कृते कार्ये इदानीं महादेवन् महोदयः पश्यति मम तु भोजनं कार्यं दत्तं, सा सुजाता भगिनी तत्र अस्ति, अतः यदि अर्धकार्यं सा कार्यं यदि समापितवती सा, पुनः सः कार्यं कर्तुं न प्रभवति. इदानीम् अत्र किं भवति इति इदानीम् अस्मिन् सूत्रे पश्यामः. शार्ङ्गिन् छिन्दि इत्यत्र शार्ङ्गिन् छिन्दि इत्यत्र रुक्त्वं यदा आगच्छति तदा स्तुत्वस्य प्रवृत्तिः नास्ति, अतः स्तोस्तु नास्तु इति नागच्छति. एतत् प्रथमप्रश्नस्य उत्तरम् अवगतं वा सर्वैः? हा, इदानीं द्वितीयप्रश्नस्य उत्तरम्. द्वितीयप्रश्नस्य उत्तरम् अत्रानुनासिकः पूर्वस्य तु वा अनुनासिकात् परो अनुस्वारः. एते द्वे सूत्रे कीदृशसूत्रे स्तः इति, यदि विधिसूत्रं वा अधिकारसूत्रं वा परिभाषासूत्रं वा संज्ञासूत्रं वा इति द्रष्टव्यमस्माभिः. అత్రానునాసికస్య పూర్ అత్రానునాసికః పూర్వస్వత్వా ఇతి ప్రాయః తత్ విధి సూత్రం ఇతి వర్తతే పరంతు అనునాసికాత్ పరవానుస్వారః ఇతి విధి సూత్రం ఇతి వర్తతే. యద్యపి విధి సూత్రమస్తి తత్ర సూత్రస్య అర్థం ఏకవారం పశ్యామః. అత్ర రూప్ ప్రకరణే రోహ్ పూర్వస్య అనునాసికః అనునాసికం విహాయ రోహ్ పూర్వస్మాత్ అనుస్వార ఆగమః ఇతి సూత్రార్థః అస్తి. రూప్ ప్రకరణే అనునాసిక అనునాసికస్య ఆదేశః రూప్ ప్రకరణే అనుస్వార ఆగమః ఇతి అస్తి. నకారస్య కిమపి సంబంధః ఏవ నాస్తి. అతః ఇండిపెండెంట్ సూత్రమస్తి తత్. ఇండిపెండెంట్ కార్యం ఇత్యుక్తే అత్రానునాసిక పూర్వస్థితి వా 832 ఈజ్ నాట్ అట్ ఆల్ కనెక్టెడ్ విత్ నశ్చవ్య ప్రశాన్. ఈజ్ దీస్ టూ సూత్రాస్ ఇండిపెండెంట్లీ వెన్ ఎవర్ దెర్ ఇస్ అ రుత్వ ప్రకరణ దే కమ్ అండ్ సిట్ దేర్ ది అనునాసిక ఆదేశ అండ్ సో తేషాం కార్యం అధికార సూత్రం ఇవ అస్తి. అత్ర పశ్యంతు సూత్రార్థం పశ్యంతు. యద్యపి అస్మాభిః విధి సూత్రం ఇది ఉచ్యతే అత్ర రూప్ ప్రకరణే పూర్వస్య అనునాసికః వా స్యాత్. ఇదానీ పూర్వవర్ణస్య కార్యం తత్. నకారస్య కార్యం నాస్తి. ఇదానీ నకారః స్థానే అస్తి షార్ంగిం చింది ఇత్యత్ర. నకారస్య స్థానే రేఫాదేశః నశ్చవ్య ప్రశాన్ ఇత్యనేన ఋత్వం ఋత్వస్య ఉకారః గచ్చతి సో రేఫః ఆగచ్చతి. ఇదానీ ఋత్వస్య కార్యం నాస్తి. అత్రానునాసికస్య పూర్వం త్వా ఇతి ఋత్వప్రకరణే యత్ర యత్ర ఋత్వమస్తి తత్తు ఏతత్తు ఇండిపెండెంట్లీ ఆగచ్చతి. తత్ర విశేషరీత్యా అస్మాభిః అసిద్ధం ఇత్యాది ద్రష్టవ్యం. ఇత్యుక్తే తాత్పర్యం ఏమస్తి అత్రానునాసికః పూర్వస్వత్వా అనునాసికాత్ పరో అనుస్వారః ఇతి సూత్రాభ్యాం యత్ కార్యం విధీయతే తత్ అధికార కార్యం ఇవ అస్తి. అధికార కార్యమివ న సర్వత్ర ప్రకరణే యుష్మాభిః గంతవ్యం ఇది తాదృశ కార్యమస్తి. సర్వత్ర యథా అధికార సూత్రం కార్యం కరోతి తథా తత్ర వ్యవస్థా అస్తి. అతః తత్ర సంబంధః నాస్తి. తత్ర 832 అస్తి ఇత్యాది సంబంధః నాస్తి. ఏవం తస్యాపి ప్రవృత్తిః భవతి. ఏవం కరవసానయోర్ విసర్జనీయః తదనంతరం విసర్జనీయస్య సహ విసర్జనీయస్య సహ అనంతరం స్తోస్తునాశ్చుః ఇతి సూత్రస్య ప్రవృత్తిః. ఏవం ప్రధానతయా అస్మాభిః ద్రష్టవ్యం స్తోస్తునాశ్చుః ఇతి సూత్రం తు నశ్చవ్య ప్రశాన్ ఇతి సూత్రం పశ్యతి సత్ జానాతి. నశ్చవ్య ప్రశాన్ అస్తి అహమపి అస్మి. అతః నశ్చవ్య ప్రశాన్ న జానాతి స్తోస్తునాశ్చుః ఇతి అస్తి ఇతి. అతః నశ్చవ్య ప్రశాన్ కిం కరోతి గత్వా కార్యం కరోతి. ఇదానీం అస్య కథనస్య తాత్పర్యం ఏమం అస్తి. పూర్వత్ర సిద్ధం ఇతి యత్ కాన్సెప్ట్ అస్తి తత్ర పూర్వ సూత్రస్య బలం అధికం అస్తి. పూర్వత్ర సిద్ధం త్రిపాద్యాం పూర్వసూత్రస్య బలం పరస్య అపేక్షయ అధికం విద్యతే. ఏతత్ అస్మాభిః జ్ఞాతవ్యం. తదర్థమేవ పాణినిః అసిద్ధ ప్రకరణే ఏతాని సర్వాణి సూత్రాణి తత్ర స్థాపితవాన్. పూర్వం సూత్రం పరస్య అపేక్షయ బలవత్వం అస్తి. బలం నామ కిం ఝటితి కార్యం కరోతి ఇత్యర్థః. అతః నశ్చవ్య ప్రశాన్ స్తోస్తునాశ్చుః ఇతి సూత్రస్య అపేక్షయా బలవత్ కిమర్థం బలవత్ అస్తి. సహ చింతయతి మమ ఏవ అధికారః అస్తి స్తోస్తునాశ్చుః నాస్త్యేవ
అత్ర మయా ఇవ కార్యం కర్తవ్యం ఇది చింతయిత్వా తస్య బలమధికం సంజాతం. అత్రాపి కార్యం కర్తవ్యం, అత సర్వత్ర కార్యం కర్తవ్యం ఇది గత్వా కార్యం కరోతి. స్తోస్తు నాస్తు కిం చింతయతి నచ్చవే ప్రశానస్తి ఇది జానాతి. యద్యపి యావత్ స్తోస్తు నాస్తు గచ్చతి తావత్ నష్టవ్య ప్రశాన్ కార్యం కృత్వా గచ్చతి. ఏవం పూర్వత్ర సిద్ధమితి కాన్సెప్ట్ ఏవ ఏతాదృశ బలవత్వ స్థాపనాయ పూర్వసూత్రస్య బలవత్వ స్థాపనాయ ఆగతమస్తి. ఇదానీ సర్వైః అవగతం వా? ప్రధాన అంశ పూర్వత్రాసిద్ధం. సో పూర్వత్రాసిద్ధం ద సూత్రాస్ ప్లేస్ ఇన్ ది త్రిపాది ఆఫ్ అష్టాధ్యాయి బై పాణిని ఇట్ సెల్ఫ్ ఈస్ బికాస్ ది పూర్వ సూత్ర హ్యాస్ గాట్ మోర్ పవర్ దాన్ ది పరసూత్ర. మోర్ పవర్ మీన్స్ వాట్? కార్యం విధి విధి సూత్రే తస్య ప్రవృత్తి పరస్య అపేక్షయా తస్యైవ ప్రవృత్తి. పరంతు సపాద సప్తాధ్యాయి మధ్య తాదృశ వ్యవస్థ నాస్తి. విప్రతిషేధే పరం కార్యం ఇది పరసూత్రస్య కదాచిత్ తుల్యబల విరోధే సతి పరసూత్రస్య ప్రవృత్తి సపాద సప్తాధ్యాయి మధ్యే అస్తి. త్రిపాద్యాం తు ఏవం ఏతాదృశ వ్యవస్థ అస్తి. ఏతద్ జ్ఞాత్వా అస్మాభి వ్యంజనసంధి కార్యకరణ సమయే అస్మాభి ఏతద్ అవశ్యం జ్ఞాత్వా ఏవ ప్రవర్తనీయం ఇతి వివేకః. ఇదానీం అగ్రిమ సూత్రం ప్రతి గచ్చామః. చక్రింత్రాయస్వ అస్మాభి అధీతం. తత్రైవ దళకృత్యమస్తి. పదస్య కిం ఇతి అస్తి. అప్రశాన్ కిం ప్రశాంతనోతి. అప్రశాన్ కిం అప్రశాన్ కిం ప్రశాంతనోతి. నశ్చవ్య ప్రశాన్ ఇత్యత్ర అప్రశానితి కిమర్థముక్తం? యది సూత్రే ప్రశానితి శబ్ద న ఉచ్యతే తదా కిం స్యాత్? యది ప్రశానితి న స్యాత్ తదా కిం స్యాత్? తదా ప్రశాంతనోతి ఇత్యత్ర ప్రశాంత్ తనోతి ఇత్యత్ర నకారాంతం పదమస్తి. ఛవ్ వర్ణః అస్తి. అం పరకత్వమస్తి. అత్ర నష్టవ్య ప్రశానిత్యనేన ఋత్వం స్యాత్. ఋత్వం అస్మాభిః న ఇష్టం. అతః ఋత్వాదేశస్య వారణాయ తత్ర ఋత్వాదేశస్య వారణాయ అస్మాభిః అప్రశానితి ఉక్తం. ఇదానీం పదస్య కిం హంతి హంత్ ఇ ఛౌ అం తత్రాపి యది పదాంత ఇదానీ హన్ ఇది ధాతుః న పదం. తత్రాపి యది పదస్య ఇది అస్మాభిః న స్వీకృతం. నశ్చవ్య ప్రశాన్ ఇత్యత్ర పదస్య పదస్య ఇది అధికారః అస్మాభిః స్వీకృతః. తదయది న స్వీక్రియతే తర్హి తత్రాపి దోషః స్యాత్ ఇది తత్ర ఉక్తం. ఏమేవ పదస్య ఇది హంతి పదస్య అనువృత్తేః అంపరే హన్ ధాతోః పదాంతస్య నకారస్య రుః భవతి. అత్ర ఏవం మా భూతి వ్యర్థం పదస్య ఇది అనువృత్తి. ఇదానీం అగ్రిమ సూత్రం ప్రతి గచ్చామః. నృంపే నృంపే అని నృనితి ఏకం ప్రశ్నం పృచ్చామి. నృన్ నృన్ ఇతి శబ్దః శబ్దస్య రూపాణి నృనితి కశబ్దః కా విభక్తి కిం వచనం? నృనితి శబ్దస్య కః శబ్దః కా విభక్తి కిం వచనం? మీనాక్షి భగిని ఉత్తరం దాతి వా? Meenakshi Bhagini Uttram Dadativa. Ha, Nrniti Astikila. Nrnpe Tyatra. Nrniti Astikila. Nrniti Shabdasya. Kavibaktihi Kashabdaha Kimmachanam. Nrn, Nrnpe. Lagu Kaumudyam. Nrn pe iti asti. Prathamavibhakti nasti. Kopi janati va? Kapi janati va? Mahadevan Mahodaya. Na shruyate Mahodaya kinchit uchaihi vadatu. Maya shanai shanai shrutam. Dvitiya vibhakti bahuvachanam asti. Kas shabdaha? Nr shabdaha na narau na. Tasya rup nr shabdasya rupani katham bhavanti. Na narau naraha iti bhavati. Na narau naraha evam bhavati. Astu samichinam. Idanim nrnpe atra doshah asti samikaromi. Nrnpe tyatra nrniti nrnpe nrnpe tyatra nrnityasya rurvape iti sutrartha iti laghukaumudyam evasti kim etat vidhi sutram vidyate nrnpe iti padadvayam vidyate nrniti asmabhi smartavyam tatra uttankana dosha asti. Drun peti padadvayam vidyate peti petyatra pakarasya pakare pare saptami vibhakti ru ityasya prathama vibhakti ruhu syat rutvam syat drun shabdasya antyasya nakarasya sthane vikalpena ru bhavati iti sutrartha idanim alontyasya iti paribhashaya ante bhavati. Atra udaharanam pashyamaha nrn iti asti. Nrn pahi iti asti. Nrn pahi. Nrn pahi iti atra nrshabdaha asti. Nrn peti sutrena kim bhavati rutvam bhavati. Nakarasya sthane rutvam bhavati. Nakaraha nakarasya antyasya sthane rutvam bhavati. Alontyasya tadanantaram kim bhavati. Atranasikasya purvasyatva ruttapakarane annasika adeshaha anusparagamaha tadanantaram kharavasanayor visarjaniyaha iti refasya visargaha kharavasanayor visarjaniyaha iti nruf pahi iti rupadvayam agatam annasika rupamekam anusvararupamekam idanim kim agrima sutrasya pravrti tada idanim agrim kimapi pakaraha asti tatra visargat param pakaraha asti tatra visheshan kimapi asti va iti asmavakam prashtah tatra kupoho kapocha atra kapo iti likitam tatra artha visargasya type katam karaniyam iti maya na jnatam ataha maya evam type katam pipe tatra pipe sthapitam kupoho kapo cha kripaya moolam pashyantu lagu kaumudyam kupoho kapo cha ashtamadhyayasya tritiya padasya sutrametat Kripaya sutra mudgatayatu ashtadhyayamapi Tatra visarjaniyasya saha iti Ityataha visarjaniyasya iti anuvartihi Visarjaniyasya ityukte shatti vatti asti Visargasya sthane kim bhavati kupoho kim bhavati Kupoho nama kim Kupoho nama Atra asma kupoho kavarga pavarga परे कवर्गे पवर्गे च परे इति अर्थः लभ्यते कथं लभ्यते कुश्च पुश्च कुश्च पुश्च कुपु इदानीं शम्भुश्च गुरु शम्भुश्च गुरुः च इति यदि उच्यते चेत् संधि समासः कथं भवति शम्भुश्च शम्भुः च गुरुः च शम्भु गुरु इति भवति एवं Kuscha Puscha Kupu iti bhavati Tayoho Kupu Tayoho Kupuoho iti bhavati Kupuoho nama Kuscha Puscha Kupu Tayoho Kupuoho iti samasa Idanim Kupuoho Kupuoho ityasya artha kaha ityukte Kavarge Pavarge Pare Kavarge Pavarge cha Pare Kim bhavati Visargah tasmat purvam yadi visargah bhavati chet visargavarge pavarge cha pare visarjaniyasya kramat jihvamuliya upadmaniyau staha kapho bhavati tatra jihvamuliyasya chinham tu asvabhi adhitam varnamalayam ardha visarga sadrsham bhavati iti jihvamuliyasya jihvamulam upupadmaniyanam oshtau tatra Yevam upadmaniyanam jihvamuliyasya ardhavisarga dhvanihi iti asmabhi ardhavisarga sadrsha dhvanihi uccharanam iti asmabhi adhitam kavarge kapavarge cha pare visarjaniyasya kim bhavati jihvamuliya upadmaniyau bhavati idanim asmabhi atra karavasanayor atra yetatapi asmabhi Idanim kavarge pavarge pare ityukte sampurna kavargasya bhavativa sampurna pavargasya bhavativa iti prashnaha jayate tada asmabhi asmabhi uchyate kevalam ka Kakha papha yete varnaha sikriyante Kimartham ichukte kharavasanayoho visarjaniyaha Iti ekam sutram vidyate Khar Idanim visargasya vidhanam kera sutrena bhavati Kharavasanayoho visarjaniyaha iti anena sutrena bhavati Kharavasanayoho visarjaniyaha iti yatra khar varnaha asti Keke karvarnaha iti prashne krte tatra karkasha vyanjanani eva karvarnani iti vayam vadamaha tatra kavargasya pavargasya karkasha vyanjanani kani ityukte kati varnaha santi ityukte ka kha pa pa yete eva santi अतः यद्यपि अत्र कवर्गे पवर्गे इति उक्तम् तथापि प्रथमौ द्वौ वर्णौ एव स्वीक्रियते अस्माभिः इति ज्ञेयम् इदानीं प्रश्नः उदाहरणं प्रति आगच्छामः नृन् पाहि इत्यत्र अस्माभिः दृष्टम् अन्नासिकरूपमेकम् अनुस्वाररूपमेकम् तदनन्तरं Kupo, kupo, kapo cha iti sutrasya pravrtihi. tada kim bhavati pa ityatra ardha visarga sadasha visargasya sthane ardha visargaha bhavati nruv pahi iti kupo kapo chayati ardha visarga pravartihi ada asmabihi tatra bhagavad gita adi shlokanam uccharana samaye yada pataraha bhavati kakaraha bhavati tadrishayeva ardha visarga yadrapi visargaha bhavati tadrishayeva asmabihi uccharanam kriyate tattva asmabihi jnatum shakyate idanim idanim ekam shlokam vidyate aham pathami klaibhyam asmagamah partha naitattvayupapadyate iti shlokam dvitiyadhyayase ekam shlokam asti idanim atra pashyantu klaibhyam asmagamah agamaha iti asti partha iti asti इदानीं यद्यपि विसर्गः अस्ति पार्थ इति अस्ति पुस्तकेषु प्रिंट मीडिया मध्ये तत् अर्थविसर्गः न दृश्यते परन्तु वयं वैयाकरणाः अस्माभिः किं क्रियते तत्र लोके अपि क्लैब्यम् स्मगमः पार्थ इत्येव उच्यते स्मगमः पार्थ स्मगमः पार्थ इति यदा उच्यते विसर्गात् पकारः अस्ति तत्र अर्थविसर्ग एव अस्माभिः उच्चारणं क्रियते एतादृश उदाहरणानि भगवद्गीतायां संक्षेपरामायणं सर्वत्र अस्ति सर्वत्र बहूनि उदाहरणानि सन्ति यत्र यत्र पकारः यत्र यत्र ककारः अस्ति मनुष्याणां सर्वेषु अन्यत् उदाहरणमस्ति अमीहि त्वां सुरसङ्घा विशन्ति केचिद् भीताः प्राञ्जलयो गृह्णन्ति दशमाध्याय एकादशाध्यायस्य श्लोकमेतत् तत्र अस्माभिः दृश्यते चेत् केचिद् भीताः प्राञ्जलयो गृह्णन्ति इति अस्माभिः उच्यते केचिद् भीताः प्राञ्जलयो यद्यपि विसर्गः पुस्तकेषु दृश्यते सम्पूर्णविसर्गस्य उच्चारणम् अस्माभिः न क्रियते किमर्थं न क्रियते कुप्पो कप्पो च इति सूत्रस्य प्रवृत्तिः अतः न क्रियते अन्यदुदाहरणमस्ति दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् इति अस्ति तत्रापि एवमेव क्रियते अस्माभिः दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् इति क्रियते ककारस्य उदाहरणम् अन्विष्यन् अस्ति एवमेव विष्णुसहस्रनाममध्ये आगच्छति ककारस्य उदाहरणम् झटिति न स्मर्यते मया परन्तु उदाहरणं तु भवति महादेवन् महोदय वदतु कृष्णः करोति कल्याणम् इति अस्ति कृष्णः करोति कल्याणम् इत्यत्र कृष्णः करोति तत्र अस्माभिः अर्धविसर्गः एव उच्चारणं क्रियते अर्धविसर्गस्यैव क्रियते इदानीं स्थितधीः किं प्रभाषेत इति उदाहरणमस्ति स्थितधीः किं प्रभाषेत स्थितधीः किम् इति अर्धविसर्गः एवं कुप्पो कप्पो च इति सूत्रस्य प्रवृत्तिः सर्वत्र तत् अर्धविसर्गः भगवत गीता गीता प्रेस प्रिंट मध्ये सर्वत्र नास्ति परंतु यदि तादृश अर्धविसर्ग चिन्हं तत्र स्थाप्यते चेत् जनाः किं कुर्वन्ति इति तेन जानन्ति अतः जनानां भ्रमः भवति ये वैयाकरणाः न तेषां भ्रमः भवति इति कारणात् ते तत्र तादृशं न स्थापयन्ति परन्तु उच्चारणप्रक्रियायां तत्र गुरुपरम्परा मध्ये अस्माकम् उच्चारणं तु अर्धविसर्गमेव भवति इति अस्माभिः ज्ञातव्यम् कुपो कपो च इत्यत्र इदानीं यदि ऋत्व कुपो कपो च इति उक्तं तत्तु विकल्पः अस्ति ऋत्व अभावे तत्र नृन्पाहि इत्यत्र ऋत्व अभावः अभावरूपम् अस्ति तदा नृन्पाहि इत्येव भवति ऋत्व अभावे एवं नृन्पाहि इत्यस्य पञ्चरूपाणि सन्ति संहितारूपाणि पञ्चरूपाणि सन्ति नृन्पाहि इति साक्षात् रूपं नृपाहि कुपो कपो च इति रूपं तत्र चाद्विसर्गः इति एकं अस्ति तत्र चाद्विसर्गः इत्युक्ते चाद्विसर्गः कुपो कपो च चाद्विसर्गः अत्र चकारः स्वीकृतः कुपो कपो च इति सूत्रे चकारः स्वीकृतः किमर्थं चकारः स्वीकृतः विसर्गस्य क्रमेण जिह्वामूलीयः भवति अर्धविसर्गः भवति पुनः विसर्गः भवति विसर्गस्य इदानीं स्थितधी किं प्रभाषेत इत्यत्र स्थितधीः किं प्रभाषेत इति उच्यते चेत् तदपि साधुरेव सन्धिकृतः वा न कृतः वा संहिता कृतः न स्थितधी किं प्रभाष विसर्गस्य पूर्ण उच्चारणं क्रियते चेदपि न दोषः यतोहि तत्र चाद् कुप्पो कप्पो च इति तु वैकल्पिकमस्ति यदि कुप्पो कप्पो च नागच्छति च इति सूत्रे उक्तत्वात् अस्माभिः विसर्गस्य स्थाने पुनः विसर्गः स्थाप्यते एवं नृपाहि इति विसर्गरूपमेव आगच्छति ऋत्वा अभावे किं भवति नृन्पाहि इति भवति इदानीं नृ कुप्पो कप्पो च इति सूत्रं समाप्तम् तस्य परम् आम्रेडितम् इति अग्रिमसूत्रं विद्यते तस्य परम् एतत् सुलभमस्ति आम्रेडितम् इति संज्ञा तस्य परम् आम्रेडितं वा ओ एतत् संज्ञासूत्रं भवेत् किल विधिसूत्रम् इति किम् दोषः अस्ति संज्ञासूत्रम् एतत् विधिसूत्रं नास्ति संज्ञासूत्रम् तस्य परम् आम्रेडितम् तस्य इत्युक्ते कस्य अष्टमाध्यायस्य प्रथमाध्यायस्य सूत्रमेतत् कृपया स्वीकुर्वन्तु अष्टाध्यायम् तत्र अष्टाध्यायी मध्ये सर्वस्य द्वे इति प्रारभ्यते द्वित्वप्रकरणम् प्रारभ्यते द्वित्वम् नाम इदानीम् अस्माभिः पौनरुक्तिः क्रियते पौनरुक्तिः नाम भूयो भूयो नमाम्यहम् मन्दम् मन्दम् गच्छति इत्यादि द्विवारम् उच्यते इदानीं यत्र यत्र व्याकरणशास्त्रे द्विवारम् उच्यते तदा परस्य आम्रेडितम् इति संज्ञा आगच्छति स एव उच्यते तस्य परम् आम्रेडितम् तस्य इत्युक्ते विरुक्तस्य इति स्वीक्रियते कथं ज्ञातं विरुक्तस्य इति तस्य इत्युक्ते विरुक्तस्य इति स्वीकर्तव्यम् तस्य शब्दस्य सर्वस्य द्वे इति अनेन सूत्रेण द्वित्वं भवति तत् 811 सर्वस्य द्वे अस्ति इदानीं कानाम्रेडिते इति सूत्रमस्ति अग्रिमसूत्रं कान् आम्रेडिते कान् इत्यस्य नकारस्य रुः स्यात् आम्रेडिते परे आम्रेडितं नाम किम् आम्रेडितं नाम यदा यदा द्वित्वं भवति इत्युक्ते द्विर्वचनं भवति इत्युक्ते द्विरुक्तिः भवति द्विरुक्तिः यत्र यत्र भवति तदा तदा द्वितीयस्य परस्य आम्रेडितम् इति संज्ञा विधीयते इदानीं कान कान इति किम शब्दस्य द्वितीय व्यक्ति रूपम् कान इति अत्र कानाम्रेडिते यदि कान शब्दस्य नकारस्य आम्रेडित संज्ञा अस्ति चेत् तदा किं भवति रुत्वं भवति इति अस्ति इदानीं कान 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 इत्यत्र कान र कान इति भवति अत्र अनुनासिकस्य पूर्वस्य त्वा तस्मा अनुस्वार एतत् सर्वं अत्र संपुंकानां सो वक्तव्यः इति सूत्रं विद्यते संपुंकानां तत्र सम् इति उदाहरणं संस्कर्ता इति पुं पुंस्कोकिलः इति उदाहरणं पुम् इत्यस्य इदानीं कान् इति अस्ति कान् शब्दस्यापि संपुंकानां सो वक्तव्यः इत्यनेन कान् इत्यस्य रुत्वं भवति करवसानयोर्विसर्जनीयः इति विसर्गः भवति इदानीं विसर्गस्य सकारः केन भवति संपुंकानां सो वक्तव्यः इत्यनेन विसर्गस्य सकारः काम्स् कान् इति भवति एवमेव अनुस्वाररूपमपि भवति इदानीम् अग्रिमसूत्रं छे च इति भवति ह्रस्वस्य छे तुक् इत्युक्ते छे इत्युक्ते चकार सप्तमी छे सकारे न चकारे सकारे चकारे परे तुक् भवति कस्य ह्रस्वस्य तुक् इत्युक्ते कित् अस्ति कित् यदि अस्ति चेत् आगमः अस्ति अस्माभिः अधीतं कित् मित् टित् एतौ एते आगमाः सन्ति इत्यत्र कित् अस्ति अतः आगमः अस्ति ह्रस्वस्य पितिकृति तुक् इति सूत्रेण तत्र षष्ठाध्यायस्य प्रथमाध्यायस्य सूत्रम् ततः पूर्वं ह्रस्वस्य पितिकृति तुक् इति अस्ति तद् एकवारं पश्यन्तु अष्टाध्याय्याम् एवं तुक् इति स्वीक्रियते एवं सूत्रार्थः किम् आगतम् चकारे परतः ह्रस्वस्य तुगागमः भवति कित्वात् आद्यन्तौ टकितौ इति परिभाषया किं भवति ह्रस्वस्य अन्तावयवः भवति यतोहि कित् अस्ति इदानीं सुलभम् उदाहरणमस्ति शिवच्छाया इति अस्ति शिवच्छाया शिवच्छाया इत्यत्र इदानीं शिवस्य छाया इति विग्रहः अस्ति एवं ह्रस्वस्य अवर्णः अस्ति चकारपरकत्वमस्ति इदानीं चकारपरकत्वमस्ति अतः अस्माभिः किं क्रियते आद्यन्तौ टकितौ इत्यनेन कित् अस्ति तुक् इत्यस्य तकारः एव अवशिष्यते वकारोत्तर अकारस्य अन्तावयवस्थन् किं भवति शिव त् छाया इति भवति शिव शिव छाया शिव त् छाया अनन्तरं किं भवति तोश्चु नाश्चुः इति अनेन
न इदानीं स्तोश्चुनाश्चुः स्तोश्चुनाश्चुः इति सूत्रस्य संख्या किं विद्यते स्तोश्चुनाश्चुः इति सूत्रस्य सूत्रसंख्या 77 अस्ति अतः किं भवति जलांजशोन्ते इति सूत्रं प्रथम एवं किं भवति जलांजशोन्ते इत्यनेन 8440 अस्ति परन्तु जलांजशोन्ते 8239 अस्ति 8239 वा 8240 वा अस्ति जलांजशोन्ते इति सूत्रस्य संख्या 8239 अस्ति 8239 किं करोति स्तोश्चुनाश्चुः नास्ति इति चिन्तयित्वा 8239 आगच्छति शिवत् छाया इति स्थिते शिवद् छाया इति करोति तदा शिवद् छाया इत्यनेन तदनन्तरं स्तोश्चुनाश्चुः इति सूत्रस्य प्रवृत्तिः एवं एवं किम् आगतम् दकारस्य जकारादेशः शिवजि छाया इति भवति तदनन्तरं खरिच इत्यनेन खरिच इति 8454 अस्ति अतः अन्ते खरिच इति आगत्य चकारः भूत्वा शिवच्छाया इति भवति कृपया तद् लिखन्तु नोट्बुक् मध्ये शिवच्छाया शिवत् छाया छेच इति सूत्रेण शिव दु छाया जलांजशोन्ते शिव जि छाया स्तोश्चुनाश्चुः शिव तु सॉरी शिव चु छाया खरिच अवगतं वा एवं शिवच्छाया इदानीम् अग्रिमसूत्रं पदान्ताद्वा इति अस्ति इदानीं दीर्घात् पदान्तात् चेत्तुग्वा इति सूत्रार्थः इदानीं यदि दीर्घस्वरः अस्ति चेत् इदानीम् एतत् ह्रस्वस्य पितिकृतिक्तुक् तत्र अत्र छेच इत्यत्र ह्रस्वस्य भवति तदपि पदान्ते भवति वा कुत्र भवति इति न उक्तम् अत्र पदान्ते भवेत् दीर्घवर्णः भवेत् तदा तस्मात् परः चकारः भवेत् तदा तुग् भवति इत्युक्ते लक्ष्मीछाया इत्यत्र लक्ष्मीछाया लक्ष्म्याः छाया इत्युक्ते लक्ष्मी देवी अस्ति लक्ष्म्याः छाया इति विग्रह अस्ति अतः समास नित्यत्वं समासे संहिता नित्या अस्ति अतः किं भवति इत्युक्ते अस्माभिः संहिता करणीया एव संहिता नाम किं करणीयम् इत्युक्ते पदान्ताद्वा तत्र दीर्घ इकारः अस्ति प्रथमं किं भवति इत्युक्ते छेच इत्यनेन तुगागमः एवमेव यथा तत्र ह्रस्वस्य पितिकृति इत्युक्ते शिवच्छाया इत्यत्र यथा अस्ति तथा एव अत्रापि भवति समयस्य अभावात् अहम् अग्रे गच्छामि अत्रापि विकल्पेन तुक् भवति अतः अन्तावेव सन् भवति अत्र अस्माभिः लिखितं लक्ष्मीछाया लक्ष्मीत् छाया लक्ष्मीद् छाया लक्ष्मीज् छाया लक्ष्मीच्छाया चत्रे कृते एवं भवति यदा तुगागमः न भवति तदा किं स्यात् किं भवति इत्युक्ते वैकल्पिकः विकल्पः अस्ति अतः लक्ष्मीछाया इत्येव भवति एवम् अस्माभिः व्यञ्जनसन्धिप्रकरणस्य समाप्तिः भगवतः कृपया कृतम्
अग्रिम कक्षायां विसर्ग संधि प्रकरणं कुर्मः परन्तु एकवारं सम्यक् पठन्तु व्यञ्जन संधि प्रकरणं सम्यक् पठन्तु संशयः अस्ति चेत् पृच्छन्तु अग्रिम कक्षायां प्रथम तत्र यदा संपूर्ण नो चेत् विसर्ग संधिमपि समापयामि तदनन्तरं संशयः भवन्ति बहवः संशयाः भवन्ति कस्य सूत्रस्य कदा प्रवृत्तिः किमर्थम् एतत् सूत्रं नागतम् किमर्थम् एतस्य प्रवृत्तिः नास्ति इत्यादि सन्देहाः भवन्ति तादृश अहं विसर्गसन्धि समाप्त्यनन्तरं तादृशसन्देहानां निवारणं कर्तुमिच्छामि अनन्तरं कृपया पठन्तु नो चेत् तत्र शब्दप्रकरणे वयं क्लेशान् अनुभवामः यदि अत्र अस्माभिः किं क्रियते एते सन्देहः कुत्र भवन्ति भो तत्र अस्माकं काव्ये तु इदानीन्तनपर्यन्तम् एतादृशसन्देहः नागताः एव ततः तत्र कोऽपि तस्य प्राधान्यं नास्ति इति एवं कृपया मा चिन्तयन्तु शब्दप्रकरणे एतेषां सर्वेषां सूत्राणां पुनः प्रवृत्तिः भविष्यति तदा अस्माभिः सूत्रार्थम् उक्त्वा अग्रे गन्तव्यं भवति अतः मया पुनः पुनः उच्यते कृपया पठन्तु अहं विसर्गसन्धि समाप्त्यनन्तरं विसर्गसन्धेः समाप्त्यनन्तरम् असैन्मेण्ट् प्रेषयामि कृपया असैन्मेण्ट् कुर्वन्तु इदानीं पठन्तु केवलं पठन्तु तत्र एकः विशेषः सूचना विद्यते प्रायः तत्र लिङ्क् मया तत्र जनवरी 31 पर्यन्तमेव वेलिड् अस्ति एतद् लिङ्क् गो टु वेबिनार् लिङ्क् तद् पुनः शेड्यूल् कृत्वा प्रेषयामि एतदेव 9:30 to 9 to 10 इति एतदेव वेड्नस्डे फ्रैडे प्रेषयामि मार्च् मासात् अहं तत्र कक्षाद्वयं विसर्गसन्धि समाप्त्यनन्तरं कक्षात्रयं वा नो चेत् अस्यैव अर्धघण्टा किञ्चित् अधिकं कर्तुं शक्यते 9 to 10:30 कर्तुं शक्यते तत् कृपया विचिन्त्य सूचयन्तु यदि क्लेशः भवति चेत् कक्षात्रयं कर्तुं शक्यते परन्तु मम सौलभ्यं कुत्र अस्ति इति भवन्तः पृच्छन्ति चेत् कक्षाद्वये मम सौलभ्यमस्ति यतोहि अहम् एकवारम् उपविशामि चेत् पाठं कर्तुमिच्छामि यदि न अस्माभिः तत्र ग्रहणं कर्तुं न शक्यते एकघण्टानन्तरम् इति भवन्तः भवत्यः यदि चिन्तयन्ति चेत् कृपया सूचयन्तु भवतः अवगमनमेव मम प्रधानं मम सौलभ्यं तद् अनन्तरं यदि भवन्तः पाठं कृत्वा अपि यदि भवन्तः न अवजानन्ति तत्र तर्हि व्याकरणपठनेन किमपि प्रयोजनं न भवति अतः तत्र कान्सन्ट्रेशन् अपि भवेत् वन् अण्ड् हाफ् अवर् कान्सन्ट्रेशन् इत्युक्ते यूयं सर्वे ज्येष्ठाः एव अतः प्रायः तत्र एकाग्रता प्रायः न्यूनं भविष्यति इति चिन्तयामि अतः क्लेशः नास्ति ममापि एकाग्रता नास्ति कदाचित् चिन्ता नास्ति किञ्चित् विचिन्त्य वदन्तु फेब्रवरी मासान्ते कृपया वदन्तु कृपया सम्यक् पठन्तु व्यञ्जनसन्धिमध्ये असैन्मेण्ट् आगमिष्यति मासान्ते असैन्मेण्ट् प्रेषयामि अग्रिम बुधवासरे कक्षा अस्ति अवश्यं कुर्मः विसर्गसन्धिकक्षाम् अवश्यं कुर्मः येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौता नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं सर्वेभ्यः राम 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 शुभरात्रि धन्यवादः।